सुराणाम् अधिपे देवानाम् च पुरन्दरे तत्र सुरैर्महावीर्यैर्देव सैन्यम् पराजितम् जित्वा च सकलान् देवानिन्द्रो भूर्मनिशासुरः ततः पराजिता देवापद्मयोनिम् प्रजापतिम् पुरस्कृत्य कथास्तत्र यत्रेष गुरुध्वजौ यथा वृत्तम् तयोस्तद्वन्महिषासुरचेष्टितम् त्रिदशा कथयामासु देवाभिभवविस्तरम् सूर्येन्द्राज्ञविरेन्दूनाम् यमस्य वरुणस्य च अन्येषाम् चाधिकारान् स्वयमेवाधितिष्ठति स्वर्गान्निराकृता सर्वे तेन देवगणा भुवि विचरन्ति यथा मत्या महिषेण दुरात्मना एतद्वकथितम् सर्वमवदारि विचेषितम् शरणम् प्रपन्नास्वोपधस्तस्य विचिन्त्यता इत्थम् विशम्य देवानाम् प्रशांसि मधुसूदनः चकारकोपम् शम्भुश्च भ्रुकुटीकुटिलाननौ ततोऽधिकोपपूर्णस्य चक्रिणो वदनात्ततः निश्चक्रामहत्तेजो ब्रह्मणः शङ्करस्य च अन्येषाम् चैव देवानाम् शक्रादीनाम् शरीरतः निर्गतम् सुमहत्तेजस्तच्चैक्यम् समगच्छत अतीव तेजसकूटम् ज्वलन्तमिव पर्वतम् ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् अतुलम् तत्र तत्तेजः सर्वदेव शरीरजम् एकस्थम् तदभून्नारी व्याप्तलोकत्रयम् दिशा यदभूक्षाम् भवम् तेजस्तेना जायत तन्मुखम् याम्येन च भवन् केशा बाहवो विष्णुतेजसा सौम्येन स्तनयोर्युग्मम् मध्यम् चैन्द्रेण च भवद् वारुणेन च जम्भोरूदितम् हस्तेजसा भुवः ब्रह्मणस्तेजसा पादौ तदङ्गुल्योर्कतेजसा वसूनाम् चकराङ्गुल्यः कौबेरेण च नासिका तस्या सुरन्ता सम्भूता प्राजापत्येन तेजसा नयनत्रितयम् यज्ञे तथा पावकतेजसा भृवोचसन्ध्ययोस्तेजः श्रवणामयस्य च अन्येषाम् चैव देवानाम् सम्भवस्तेजसाम् शिवा ततः समस्तदेवानाम् तेजो राशिसमुद्भवान् ताम् विलोक्यमुदम् प्रापुरहरामहिषार्दिताः शूरम् शूरात्मनिष्कृष्य ददौ तस्येऽपि नाकधृक् चक्रम् च दत्तवान् कृष्णः समुत्पाद्य सचक्रतः शङ्खम् च वरुणः शक्तिम् ददौ तस्ये हुताशनः मारुतो दत्तवान् शापम् बाणपूर्णे तथेषुधि वज्रमिन्द्रः समुत्पाद्य कुलिशादमराधिपः ददौ तस्यै सहस्राक्षो घण्टामैरावताद्यजात् कालदण्डाद्यवो दण्डम् पाशम् चाम्बुपदौ प्रजापतिश्चाक्षमालाम् ददौ ब्रह्माकमण्डलम् समस्तरोमकूपेषु निजरश्मीङ्गिवाकरः कालश्च दत्तवान् खड्गम् तस्या चर्मज निर्मलम् क्षीरोदश्चामलम् हारभजरे च तथाम्बरे चूडामयम् तथा दिव्यम् कुण्डले कटकानि च अर्धचन्द्रम् तथा शुभ्रम् गेयूराम् सर्वबाहुषु नूपुरौ विमलौ तद्वद्ग्रैवेयकमनुत्तमम् अङ्गुलीयकरत्नानि समस्ता स्वङ्गुलीषु च विश्वकर्मा ददौ तस्यै परशुम् चातिनिर्मलम् अस्त्राण्यनेकरूपाणि तथा भेद्यम् च दंशनम् अम्लानपङ्कजाम् मालाम् शिरस्युरसि चापराम् अददज्वलधिस्तस्यै पङ्कजम् चातिशोभनम् हिमवान्वाघनम् सिंहम् रत्नानि विविधानि च ददावशून्यम् सुरया पानपात्रम् धनाधिपः शेषश्च सर्वनागेशो महामणि विभूषितम् नागहारम् ददो तस्यै धत्ते यः पृथिवीमिमाम् अन्यैरपि सुरैर्देवी भूषणैराह्यैस्तथा सम्मानितारणादोच्छैः सट्टहासम् मुहुर्मुहुः तस्यानादेण घोरेण कृत्स्नमापूरितम् नभः अमायतातिमहता प्रतिशब्दो महानभूत् चुक्षुभुः सकला लोका समुद्राश्च चकम्पिरे चचालवसुधा चेरुः सकलाश्च महीधराः येऽपि देवाश्च मुदा तामोच सिंहवाहिनी तुष्टुर्मुरयश्चैनाम् भक्तिरम्रात्ममूर्तयः दृष्ट्वा समस्तम् संक्षुब्धम् त्रैलोक्यमरारयः सन्नद्धाखिलसैन्यासे समुत्तस्थुरुदायुधाः आः किमेतदिति क्रोधादाभाष्यमहिषासुरः अभ्यधावत तम् शब्दमशेषैव सुरैर्वृतः सददर्शतो देवीम् व्याप्तलोकत्रयाम् त्रिषाम् पादाक्रान्त्या नतभुवम् किरीटो लिखिताम्बराम् शोभिता शेषपातालाम् धनुर्जानिस्वनेन ताम् दिशोभुजसहस्रेण समन्ता व्याप्य संस्थिताम् ततः क्रमवृते युद्धम् प्रजा देव्या सुरद्विषाम् शस्त्राश्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् महिषासुरसेनानी चक्षुराक्षो महासुरः युधे चामरश्चान्यैश्चतुरङ्गबलान्वितः रथानामयुतैः षड्भिरुदग्राक्षो महासुरः अयुध्यतायुतानाम् च सहस्रेण महाबलुः पञ्चाशद्भिश्च दैतैरसियो मा महासुरः अयुतानाम् शतैश्चभ्यर्बाष्पयो युधेरणे गजवायुसहस्रौभैरनेकैः परिवारितः वृतोरथानाम् कोट्यादयुद्धे तस्मिन्नयुध्यताम् विराजाख्योयुतानाम् च पञ्चाशद्भिरथायुतैः युधे संयुगे तत्र रथानाम् परिवारितः अन्ये च तत्रायुतशो रथनागहैर्वृताः युधुः संयुगे देव्या सह तत्र महासुराः कोटिकोटिसहस्रेषु रथानाम् दन्तिनाम् तथा हयानाम् च मृतो युद्धे तत्राभून्महिषासुरः ोमरेभिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः केचिच्च चिक्षुभुः शक्तिः केचित् पाशाम् सदा परे देवीम् खड्गप्रहारेस्तु ते ताम् हन्तुम् प्रचक्रमुः सापि देवी कदस्तानि शस्त्राण्यस्त्राणि चण्डिका ीलयैव प्रचिच्छेदनिशस्त्रास्रवर्षिणी अनायस्तानना देवी स्तूयमानासुरश्रिभिः मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी सोऽपि क्रुद्धोऽधुतसतो देव्या वाहनकेसरी चचारासुरसैन्येषु वने शिवभूताशनः विश्वासान्मोचेयाम् च युध्यमानारणेऽम्बिका तयेव सद्यः सम्भूता गणा शतसहस्रशः युधुस्ते परशुभिर्भिन्दिपादासि पट्टिशैः नाशयन्तो सुरगणान् देवी शक्त्युपबृम्भिताः अवादयन्तपटहान् गणा शङ्खास्तथा परे मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः खड्गादिभिश्च शतशो निदघान महासुरान् पातयामास चैवान्यान् घण्टास्वनविमोहितान् असुरान् भुरिपाशेन बद्ध्वा चान्यानकर्षयत् केचिद्विधा कृतास्तीक्ष्णैः खड्गपातैस्तथा परे विपोथिता निपातेन गदया भुविशेरते वेमुश्च केचित् रुधिरम् कुशलेन भृशम् हताः केचिन्निपतिता भूमौ भिन्ना शूरेण वक्षसि निरन्तराश्वरूपेण कृता केचित् प्रणाजिरे शेरानुकारिणः प्राणान् मुमुक्षुस्त्रिदशार्दनाः येषाम् शिप्पार्भवश्छिन्नाश्छिन्नग्रीवास्तथा परे शिरांसिरे दुरन्येषामन्ये मध्ये विदारिताः विच्छिन्नजङ्घास्त्वपरे वेदुरुर्याम् महासुराः एकबाह्वक्षिचरणा केचिद्देव्याधिः कृताः छिन्नेऽपि चान्ये शिरसि परिताः पुनरुत्थिताः कबन्धायुधुर्देव्या गृहीतपरमायुधाः मृतश्चापरे तत्र युद्धे दूर्यलयाश्रिताः कबन्धाच्छिन्नशिरसखड्गशक्युष्टिपाणयः तिष्ठतिष्ठेति भाषन्तो देवी मन्ये महासुराः पातितैरथनागाश्वैरसुरैश्च वसुन्धरा अगम्यासा भवत्तत्र यत्रा भूत्समहारणः शोणितौघामहानद्यः सद्यस्तत्र प्रसुश्रुवुः मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् क्षणेन तन्महासैन्यमसुराणाम् तथाम्बिकाम् निन्ये क्षयम् यथा वह्निस्कृणदारुमहाचयम् स च सिंहो महानादमुत्सृजन्धुतकेसरः शरीरेभ्यो मरारीणामसूरिरविचिन्वति देव्या गणैश्च तैस्तत्र कृतम् युद्धम् महासुरैः यथैषाम् दुदुशुर्देवाः पुष्पवृष्टिमुचोदिनि ॐ सत्या सङ्कुयमानस्य कामाः नमो देव्यै महादेव्यै शिवायै सततम् नमः नमः प्रकृत्यै भद्रायै नियताः प्रणतास्मताम् साङ्गायै सायुधायै सपरिवारायै सर्वात्मिकायै लक्ष्मीबीजाधिष्ठात्र्यै श्रीमहालक्ष्म्यै नमः।